ॐ श्री परमात्मने नमः। अथ चतुर्थो अध्याय। श्री भगवान उवाच, इमं विवस्वते योगं प्रोक्तवानहमव्ययं विवत्स्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत्। एवं परंपरा प्राप्तं इमं राजर्षयो विदु, सकाले नेह महता योगो नष्ट परंतप, स एवायं मया त्यज्य योगः प्रोक्तः पुरातन, भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्। अर्जुन उवाच, अपरं भवतो जन्म परं जन्म विवस्वतः, कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति। श्रीभगवान् उवाच, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन, तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप। अजोऽपि सन्न व्ययात्मा भूतानाम् ईश्वरोऽपि सन्, प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया, यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं, परित्राणाय साधूनां विनाशाय च दुष्कृतं, धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। जन्म कर्म च मे दिव्य मेवं यो वेत्ति तत्त्वतः, त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन, वीतराग भय क्रोधा मन्मया मामुपाश्रिता, बहवो ज्ञान तपसा पूता मद्भावमागता, ये यथा मां प्रबध्यन्ते तांस्तथैव भजाम्यहं, मम वर्तमानो वर्तन्ते मनुष्याः पार्थ सर्वशः, कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवता, क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा, चातुर्वर्ण्यं मया सुष्टं गुणकर्म विभागशः, तस्य कर्तारमपि मां विद्यकर्तारमव्ययं, न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा, इति मां यो विजानाति कर्म भिन्न स बध्यते, एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः, कुरु कर्मैव तस्मात्त्वं पूर्वै पूर्वतरं कृतं, किं कर्म किं कर्मेति कवयोऽप्यत्र मोहिता, तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्षशेषुवात्। कर्मणोऽपि बोद्धव्यं बोद्धव्यं च विकर्मणः, अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः, कर्मण्यकर्मय पश्येद् अकर्मणि च कर्मय, स बुद्धिमान् मनुष्येषु सयुक्त कृत्स्नकर्मकृत्, यस्य सर्वे समारम्भा कामसङ्कल्पवर्जितः, ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधा, त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः, कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति स, निराशीर्यतचित्तात्मा त्यक्तः सर्वपरिग्रहः, शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषं, यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः, समसिद्धावसिद्धौ च कृत्वापि न निबध्यते, गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः, यज्ञायाचरतः कर्म समग्रं प्रविलीयते, ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मनाहुतं, ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना, दैवमेवापरे यज्ञं योगिनः पर्युपासते, ब्रह्माग्नावापरे यज्ञं यज्ञैनैवोपजुह्वति, श्रोत्रादीनिन्द्रियान्यन्ये संयमाग्निसुजुह्वति, शब्दादीन् विषयानन्य इन्द्रियाग्निसुजुह्वति, सर्वानिन्द्रियकर्माणि प्राणकर्माणि चापरे, आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते, द्रव्ययज्ञास्तपोयज्ञ योगयज्ञास्तथा परे स्वाध्यायज्ञानयज्ञाश्च यतायः संसितव्रता अपाने जुह्वति प्राणं प्राणे पानं तथा परे प्राणापानगतिरुद्वा प्राणायामपरायणः अपरे नियताहारा प्राणान् प्राणेषु जुह्वति सर्वेप्येते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनं नायं लोकोत्स यज्ञस्य कुतोऽन्य कुरुसत्तम एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे कर्मजान्विद्धितान् सर्वा नेवं ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः यज्ञात्वा न पुनर्मोह मेवं यास्यसि पाण्डव येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि यथेधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ज्ञानाग्नि सर्वकर्माणि भस्मसात् कुरुते तथा न हि ज्ञानेन सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रिय ज्ञानं लब्ध्वा परां शान्ति मचिरेणाधिगच्छति अग्नश्चाश्रद्धदानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय तस्माद् ज्ञानसम्भूतं ह्रस्थं ज्ञानासीनात्मनः चित्वैनं संशयं योग मातिष्ठोत्तिष्ठ भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः।